जयः। रचयिता जनार्दन हेगडे। कदाचित् षण्मुख गजाननयोः मध्ये स्पर्धा प्रवृत्ता। अल्पेन एव कालेन केन प्रपञ्चः प्रदक्षिणी क्रियते इति ज्ञातव्यमिति। मयूरवाहनः षण्मुखः महताश्रमेण मासाभ्यन्तरे प्रपञ्चस्य प्रदक्षिणं कृतवान्। स्थूलोदरः गजाननः तु मातापितरौ प्रदक्षिणीकृत्य तूष्णीमुपाविशत्। अन्ते जयः तु गजाननस्य एव जातः। मातापितरौ एव जगत्तुल्यौ। तयोः प्रदक्षिणं येन कृतं तेनापि प्रपञ्चप्रदक्षिणं कृतम् इत्येव अर्थः इति पार्वती निर्णयं श्रावितवती इत्यतः। एषा तु पौराणिकी कथा। एतत् संवादिनी आधुनिकी काचित् कथा एवमस्ति। उभौ सुहृदवास्ताम्। रामसोमनामधेयौ। उभौ अपि चिन्तयतः स्म यदहमेव श्रेष्ठः इति। अन्ते श्रेष्ठता निर्णयाय ताभ्यां निर्णीतम्। यः अल्पेन एव कालेन पत्न्यै तादृशम् अपूर्वं स्थलं दर्शयेत् यच्च तया दृष्टपूर्वं न स्यात् सः एव श्रेष्ठः इति निर्णयः इति। दौर्भाग्येन उभयोरपि पत्न्यौ धनिककुले जाते। उच्चशिक्षणं प्राप्तवत्यौ। भ्रमणशीले च आस्ताम्। अतः ताभ्यां भारतस्थलानि सर्वाणि अपि अपूर्वाणि स्थलानि दृष्टानि आसन्नेव। निर्णयसमनन्तरमेव रामः गृहं गत्वा भारतस्य मानचित्रं पुरतः संस्थाप्य एकैकमपि अपूर्वं स्थलं दर्शयन् पत्नीमपृच्छत्, किं भवत्या एतद्दृष्टम् इति। तस्य पत्नी सर्वस्य अपि उत्तररूपेण अवदत्, अथ किम्, एतद् मया दृष्टमेव इति। पौराणिकानि, ऐतिहासिकानि, प्राकृतिकानि, भौगोलिकानि, शैक्षणिकानि, पुरातत्त्वीयानि, धार्मिकानि इत्यादीनि सर्वविधानि अपि स्थलानि तया दृष्टानि आसन्। हिमालयशिखरमपि आरूढमासीत् तया। सागरतलं गतवती आसीत् सा। अन्ते महताश्रमेण महताव्ययेन च एकं दुर्गमं प्रदेशं पत्नीं नीत्वा कष्टेन एव प्रत्यागतवान् रामः। प्राणापायः अपि सम्मुखीकृतः आसीत् तेन। किन्तु सोमः तु कुत्रापि न गतः आसीदेव। पत्न्या सह सरसवार्तालापं कुर्वन् दूरदर्शनादिकं पश्यन् गृहे एव स्थितवान् आसीत् सः। कष्टकरं प्रयाणं समाप्य आगतः रामः सोमम् अपृच्छत्, किं भवता कुत्रापि न गतम् इति। न इति शान्तेन स्वरेण अवदत् सोमः। अपूर्वं स्थलं किं पत्न्यै न दर्श्यते इति पुनः अपृच्छत् रामः। तत्तु बहोः कालात् पूर्वमेव कृतं मया इति अवदत् सोमः। भवता कुत्रापि न गतमेव इति श्रुतं मया। तथापि जयः तु मम एव। कथं भवितुमर्हति तद्? कुत्रापि अगच्छता भवता पत्न्यै किं वा अपूर्वं स्थलं दर्शितम् इति कोपेन अपृच्छत् रामः। तदा सोमः शान्तस्वरूपेण अवदत्, मया पत्न्यै मद्गृहस्य पाकशाला एव दर्शिता इति। जयः सोमस्य एव जातः इति पुनः वक्तव्यं नास्ति खलु इति।